आभो राजा अनमद्भरस्य रुद्रम् होता अरम् सत्यजजम् रोदस्योः अग्निम् पुरातन जित्नो रचित्ताद्धिरण्यरूपमवसे कृणुध्वम् अजञ्जो निश्चक्रमाजम् भजन्ते जाजे पपत्य उशति सुवासाः अर्वाचीनः परिवेतो निषेदेमा उते स्वपाकप्रतीचीः आशृण्वते अद्रपिता जमन्मनृचक्षसे सुमृळीका जपेधः देवाजशस्तिममृता अजशम् सग्रामे वसोता मधुशुद्यमीळे वञ्चिन्नशम्या अग्ने अस्या ऋतस्य बोद्धृतचित्स्वाधीः कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते कथा हतद्वरुणा जत्वमग्ने कथा दिवे गरहसे कन्न आगाः कथा मित्राज मेळ्ळुषे पृथिव्यै ब्रवः कदर्यम्ने कद्भाज कद्धिष्ण्या स्वृधसानो अग्ने कत्वाता जप्रतपसे शुभञ्जे परिज्मनेना सत्याजक्षे प्रभः कदग्ने रुद्राज नृघ्ने कथामहे पुष्ट्यम् भराज पोष्णे कद्रुद्राज सुमखाज हविर्दे कद्विष्णव उरुगाजाजरेतो ब्रवः कदग्ने शरवे बृहत्यै कथा शर्धा आज मरुता व्रताज कथा सूरे बृहते पृच्छमानः प्रतिब्रबोदितजेतुराजसाधा दिवो जात वेदश्चिकित्वान् ऋतेन ऋतम् निजतमीळ आगो रामा स च मधुमत्पक्वमग्ने कृष्णा सती रुषता धासि नैषा जामर्जेडपयसा पीपाय ऋतेन हिष्मा वृषभश्चिदग्धः पुमाम् अग्निः पयसा पृष्ठेन अस्पन्दमानो अचरद्वजोधा वृषा शुक्रम् दुदुहे पृष्णिरोधाः ऋतेनाद्रिम् व्यासन्भिदन्तः समङ्गिरसो नबन्तगोभिः शुनन्नरः परिषदन्नुषा समाविस्फरभवज्जाते अग्नौ ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने वाजेन सर्गेषु प्रस्तुभानः प्रसदमित्स्रवितवेदधन्यः मा कस्य यक्षम् सदमिद्धुरो गामा वेशस्य प्रमिनतो मापेः मा भ्रातुरग्ने अनुजोरऋणम् वेर्मा सख्युर्दक्षम् रिपोर्भुजे मा रक्षाणो अग्ने तव रक्षणे भीरारक्षाणः सुमखप्रीणानः प्रतिष्फुरविरुजभीड्वम् हो जहि रक्षो महि चिद्वावृधानम् एभिर्भव सुमना अग्ने अर्कैरिमान् स्पृशमन्मभिः शूरवाजान् उत ब्रह्माण्यङ्गिरो जुषस्व सन्ते शस्त्यर्देववाताचरेत एता विश्वा विदुषे तुभ्यम् वेधो नेथान्यग्ने निण्यावचांसि निवचना कवये काव्यान्यशंसिशम् मतिभिर्विप्र उक्थैः